एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा सर्वकारेण सुनसरी सिराहा जनपदयोः गुलिका प्रहारेण मृतकानां परिवारेभ्यः सहयोगं क्षतिपूर्तिं च प्रदातुं निर्णीतमस्ति। मन्त्रिपरिषदः ह्यस्तनोपवेशेन सुनसरी जनपदे घटितायां घटनायां प्रदर्शनस्य क्रमे मृतकेभ्यः आहतेभ्यश्च जनेभ्यः क्षतिपूर्तेः सहयोगस्य उपचारस्य च व्यवस्थां कर्तुं निर्णीतमस्ति इति शिक्षा खेलकूद मन्त्री सर्वकारस्य प्रवक्ता सस्मित पोखरेलः अज्ञापयत्। एवमेव सर्वकारेण निवेश समितेः प्रमुख कार्यकारीधिकृत पदे याङ्की उक्याब इतीमां नियोक्तुं विश्वविद्यालयानुदान आयोगस्य अध्यक्ष पदे प्राध्यापकं डा खड्गबहादुर केसी इत्यमुं सदस्य सचिव पदे प्राध्यापकं डा रोजी श्रेष्ठ इतीमां च नियोक्तुं निर्णीतमस्ति इति मन्त्री पोखरेलः अज्ञापयत्। उपवेशेन एकाशीत्युत्तर द्विसहस्रतम विक्रम वर्षीयां तथ्याङ्क प्रथम संशोधन नियमावलीं स्वीकर्तुं एकाशीत्युत्तर द्विसहस्रतम विक्रम वर्षीयं बाल बालिका सम्बद्धं प्रथम संशोधन विधेयकं संघीय संसदि प्रस्तुतुं पञ्चपञ्चाशदुत्तर द्विसहस्रतम विक्रम वर्षीयं पशु वधशाला मांस सम्बद्धादि नियमं आराष्ट्रं क्रियान्वेतुं च निर्णीतमस्ति। एवमेव चतुःपञ्चाशदुत्तर द्विसहस्रतम विक्रम वर्षीयं नेपाल इन्टर मोडल यातायात विकास समिति संघटनादेशं निरसयितुं नेपाल इन्टर मोडल यातायात विकास समिति इति संस्थां नेपाल पारवहन भण्डार व्यवस्थापन व्यवस्था कम्पनी लिमिटेड इति संस्थायाम् अन्तर्भावयितुं स्वीकृतिः प्रदानाय निर्णीतमस्ति इति सर्वकारस्य प्रवक्ता मन्त्री पोखरेलः असूचयत्। कृषि वन पर्यावरण मन्त्रालयेन नेपालस्य कृषि क्षेत्रम् आधुनिकं व्यावसायिकं प्रतिस्पर्धी आत्मनिर्भरं च सम्पादयितुम् एतद् विक्रमवर्षीया राष्ट्रिय कृषि नीतिः सार्वजनिकृता वर्तते। संघीय शासन प्रणाल्याः अनुरूपं निर्मितया अनया नीत्या खाद्य सुरक्षा खाद्य सम्भूता कृषकाणाम् आयाभिवृद्धिः कृष्युत्पादन वृद्धि आयातस्य विस्थापनम् कृषि निर्यातस्य प्रवर्धनं च प्राथमिकतायां स्थापितानि वर्तन्ते। नीतिर्विषये स्वस्य धारणाम् उपस्थापयन्ति कृषि वन पर्यावरण मन्त्री गीता चौधरी कृषि क्षेत्रस्य समाहोयान् सम्बोध्य सबलोत्पादन कृषि प्रणाल्याः निर्माणस्य उद्देश्येन नीतिरियं निर्मिता अस्ति इति समस्पष्टयत्। युवश्रम वृत्त्युपार्जन मन्त्री रामजी यादवः कथयति सर्वकारेण एकवर्षस्य अभ्यन्तरे देशे एव एकलक्षस्य वृत्त्युपार्जनानां सर्जनाय पूर्वकार्यं विधीयमानं वर्तते। प्रतिनिधिसभायाः अन्तर्गतायाः उद्योग वाणिज्य श्रम उपभोक्तृ हित समितेः ह्यस्तनोपवेशे मन्त्री यादवः निःशुल्कं पारपत्रं निःशुल्कं यात्रा प्रपत्रं चेति योजना प्रभावकारिणी पारदर्शिनी च सम्भूता नास्ति इति निश्चित्य अस्याः निरसनाय पूर्वकार्यं प्रारब्धमस्ति इति असूचयत्। उपवेशे मन्त्री यादवः वैदेशिक वृत्त्युपार्जनाधिनियमः संशोधनाय मन्त्रालयः प्रवर्तितोऽस्तीति च अज्ञापयत्। विधि न्याय संसदीय विषय मन्त्री सोविता गौतम निगदति अन्तर्राष्ट्रिय संस्थाभिः आन्तर सांविधानिक विषयेषु टिप्पणीं कृत्वा सर्वकारोपरि आरोपकरणम् उचितं नास्ति। विधि न्याय मानवाधिकार समितेः ह्यस्तनोपवेशे मन्त्री गौतमः एमनेस्टी इन्टरनेशनल ह्यूमन राइट्स वाच इत्यादिभिः अन्तर्राष्ट्रिय संस्थाभिः सर्वोच्च न्यायालयस्य न्यायाधीशेभ्यः राजनैतिक बलसर्जनद्वारा त्यागपत्रं प्रदातुं प्रयासः विधीयमानोऽस्ति इति आशयस्य विज्ञप्तेः प्रकाशनं प्रति आपत्तिं प्रकटयन्ति एवं भ्रामक सूचनां तत्कालम् अपाकर्तुं बलं दत्तवती। सहैव मन्त्री गौतमः न्यायपालिकाभिः सह सम्बद्धेषु संवेदनशीला विषयेषु नेपालस्य आन्तर सांविधानिक विषयेषु टिप्पणीकरणस्य अधिकारः नेपाल नागरिकेषु सम्बद्ध सांविधानिक निकायेषु एव च भवति इति चर्चयन्ति। बाह्य संस्थाभिः विहितं प्रमाणं विना एवम् आरोपणं स्वीकार्यं न भवति इति समस्पष्टयत्। उपवेशेन विज्ञप्तिर्विषये ताभ्यां संस्थाभ्यां स्पष्टीकरणं याचितुं सर्वकारः निर्दिष्टश्च वर्तते। राष्ट्रियसभा अन्तर्गतायाः संघीयता सबलीकरण राष्ट्रिय सम्बद्धता समित्या आपणेषु विद्यमानस्य पाचनेन्धनस्य अभावस्य तत्कालं निरसनाय सर्वकारः निर्दिष्टोऽस्ति। समितेः स्तनोपवेशेन आराष्ट्रं गुणस्तरीयानां वस्तूनां सेवायाश्च सहजतया आपूर्तेः व्यवस्थां विधाय कृत्रिमाभावस्य आपणे अनियमित मूल्यस्य नियन्त्रणाय च सर्वकारः निर्दिष्टोऽस्ति। एवमेव उपभोग्य वस्तूनां परीक्षणस्य व्यवस्थां कर्तुं च सर्वकारं निर्दिश्य उपभोक्तृ न्यायालयं प्रभावपूर्णं विधातुं समित्या निर्दिष्टमस्ति। विमर्शने भागं गृह्णन्तः सांसदः पाचनेन्धनस्य समस्यां समाधातुं पाचनेन्धन विक्रेतारः दायित्ववाहिनो विधातव्यः इत्यत्र बलं दत्तवन्तः। उपवेशे उद्योग वाणिज्यापूर्ति मन्त्रालयस्य सचिवः नारायण प्रसाद शर्मा दुवाडी, नेपाल तैल निगमस्य निमित्त कार्यकारी निर्देशकः दीपक बरालश्च समस्यानां समाधानस्य विषयेष् स्वधारणां व्यक्तवन्तौ। प्रतिनिधिसभायाः कार्यतालिकाम् आगामिनः उपवेशान् च प्रभावकारिणो विधातुं कार्यव्यवस्था परामर्श समितेः उपवेशे विमृष्टमस्ति। सभामुखेन डोलप्रसाद अर्यालेन आहूते उपवेशे प्रतिनिधिसभायाः कार्यतालिकां संसदः उपवेशान् च प्रभावपूर्णान् व्यवस्थितान् परिणाममुखान् संसदीय कार्यप्रणालीम् अतिरिक्तां सुदृढां च विधातुं विमृष्टमस्तीति सभामुखस्य सचिवालयेन ज्ञापितं वर्तते। सांसद हि देशस्य ऐतिहासिक सांस्कृतिक पुरातात्विक महत्वस्य सम्पदां संरक्षणाय बलं दातुं सर्वकारस्य ध्यानाकर्षणं विहितं वर्तते। राष्ट्रियसभा अन्तर्गताया सार्वजनिक नीति प्रत्यायोजित विधायन समितेः स्तनोपवेशे सांसदः प्रत्येकं प्रदेशात् न्यूनतोऽपि एकस्यः पुरातात्विक सम्पदः विश्वसम्पत्सूच्यां समावेशनाय प्रयतितुं सर्वकारम् अनुरुध्य विश्वसम्पत्सूच्यां सूचीकृतानां सम्पदां प्रवर्धनाय सर्वकारेण विशेष कार्यक्रमः सञ्चालनीयः इति अवोचत्। राष्ट्रिय स्वतन्त्र दलेन श्रावण मासस्य पञ्चविंशात् दिवसात् वयं शृणुमः इति अभियानं सञ्चालयिष्यते। अभियाने नागरिकाणां वेदना समस्या परामर्शानि च प्रत्यक्षरूपेण श्रोष्यन्ते। तदनु एतेषां विषयाणां सम्बोधनाय आवश्यक सहजीकरणं च विधास्यते इति दलेन ज्ञापितमस्ति। अस्य कृते प्रतिदिनं दलस्य केन्द्रीय सदस्येषु प्रतिनिधिसभा सदस्येषु च द्वयोः जनयोः नियमिततया उपस्थितिः अनिवार्या विहिता वर्तते। नेपाल टेलिविजन इति संस्थानेन विगतवर्षेष् उपकरणानां क्रयणस्य क्रमे सेवायांश अनियमितता विधिगत त्रुटिश्च विहितास्तीति निश्चित्य अनुसन्धान समित्या स्वस्य प्रतिवेदनं सर्वकाराय अर्पितमस्ति। डॉक्टर सुदीप भट्टराय इत्यस्य संयोजकत्वे संघटितया अनुसन्धान समित्या ह्य सूचना संचार मन्त्रिणे डॉक्टर विक्रम तिमिलसिन्हा विधाय स्वस्य प्रतिवेदनम् अर्पितम् वर्तते। इति समाचारः।